सर्वेभ्यः नमस्कारः शुद्धिकौमुदी कक्षां प्रति भवतां सर्वेषां हार्दं स्वागतम्। पूर्वतनकक्षायां वयं रूपलिङ्गवचनादिदोषाः इत्येतस्मिन् अध्याये बहून् विषयान् वयं दृष्टवन्तः। अग्रे अग्रिमाध्यायः अस्ति तृतीयः, स्त्रीप्रत्ययगताः दोषाः इति। तस्मिन् अध्याये कांश्चन विषयान् वयम् इदानीं पश्यामः। स्त्रीप्रत्ययान्तरूपाणां विषये केषाञ्चित् भ्रान्तिः अस्ति, प्रादेशिकभाषायाः प्रभावतः प्रायः एवं भवति। तादृशानि भ्रान्तियुक्तानि रूपाणि अत्र दत्तानि सन्ति। अध्यापकी इति, उपन्यासकी इति, नायकी इति, तथैव उद्घोषकी इत्यादीनि बहूनि पदानि प्रायः प्रादेशिकभाषा प्रभावेण अस्माभिः तथा उपयुज्यन्ते भ्रान्त्या। वस्तुतः शुद्धं रूपं तु अध्यापिका, लेखिका, उपन्यासिका, नायिका, उद्घोषिका, सेविका, अनुवादिका, विभूषिका, उपाध्याया, उपाध्यायी इति। एतानि शुद्धानि रूपाणि दक्षिणतः अस्माभिः द्रष्टुं शक्यानि। वामतः दत्तानि यानि रूपाणि तानि अशुद्धानि। प्रायः प्रादेशिकभाषायां बहुधा अध्यापकी, लेखकी इति वा अनुवादकी इति वा बहुधा प्रयुज्यते। एतेषु कर्त्रर्थे नूल् प्रत्ययः भवति। अत्र पाणिनिसूत्रमस्ति, प्रत्ययस्थात् कात् पूर्वस्यात् इदाप्य सुपः इति। तेन सूत्रेण ककारस्य इकारः भवति, ककारस्य इकारः भवति अपि परे, अप् इति यदा परे भवति तदा ककारस्य इकारः भवति। अतः एते सर्वे ताबन्ताः न तु नीबन्ताः। अतः अध्यापिका आ इति अन्ते आकारः एव भवति। किन्तु उपाध्यायी इत्यत्र विकल्पेन ङीष् भवति। ङीष् यदा न भवति तदा टाप् प्रत्ययः भवति। या स्वयमेव अध्यापिका सा उपाध्यायी, उपाध्याया वा। या उपाध्यायस्य पत्नी सा तु उपाध्यायानी अथवा उपाध्यायी इति। एतानि रूपाणि यत्र अस्माकं भ्रमोषात् प्रयोगः भवति, एषः सामान्यः इति विषयः। एतस्मिन्नेव विशेषविषयाः केचन सन्ति, तान् पश्यामः। स्त्रीप्रत्ययप्रकरणे एव अन्यानि कानिचन रूपाणि दृश्यन्ते भ्रान्तिमूलकानि, तदपि प्रादेशिकभाषाप्रभावकारणतः, यथा उदाहरणार्थम् अध्यक्षिणी, सिंहिणी इति। इन्नन्ताः शब्दाः स्त्रियाम् इकारं प्राप्नुवन्ति इति सर्वे जानीमः, अधिकारिणी, उपकारिणी, न्यायवादिनी इति। तेषां सादृश्यं मनसि निधाय अध्यक्षिणी इति भ्रान्तिमूलकः प्रयोगः। अध्यक्षा इत्येव शुद्धं रूपम्, सिंहिणी इति रूपं नास्ति, सिंही इत्येव। सा नर्तकी रमणीयतया नृत्यति। अत्र नर्तकी इति यत् प्रयुक्तं तत् साधु। नृती धातोः शिल्पिनि शून् इति सूत्रेण शून् प्रत्यये नर्तकः इति रूपम्। तस्य टाप् प्रत्ययः न भवति, स्त्रियां ङीष् प्रत्ययः भवति। षिद्गौरादिभ्यश्च इति सूत्रेण सः नर्तकी इति प्रसिद्धं रूपम् अस्ति, तदेव नर्तकी इति शुद्धं रूपम्। अत्र कश्चन विशेषविचारः अस्माभिः द्रष्टव्यः। शिल्पिनि शून इति सूत्रेण शून प्रत्ययः भवति इति पूर्वम् उक्तम्। शिल्पं नाम क्रियाकौशलम्, तद्वतः कर्तुः शून प्रत्ययः भवति, नाम क्रियाकौशलयुक्तः यः भवति अथवा या भवति तस्य शून प्रत्ययः भवति। तदभावे क्रियाकौशल अभावे तु कर्तरि मूल प्रत्ययः भवति, तदापि नर्तकः इत्येव रूपम्। किन्तु स्त्री प्रत्ययः यदा भवति क्रियाकौशल अभाववतः तदा तु नीष् न भवति, ताप् भवति। अतः यदि नर्तिका इति यदि उच्यते नर्तनकौशलरहिता इति अर्थः, यदि नर्तकी इति उच्यते नर्तनकौशलरहिता इति अर्थः। अतः अत्र नर्तकी नर्तिका इति स्त्रीप्रत्ययेनैव कौशलसहितत्वं कौशलरहितत्वम् अस्माभिः ज्ञातुं शक्यते। अतः यदि नर्तनकौशलमस्ति सा नर्तकी भवति, इति कौशलं नास्ति सा नर्तिका भवति इति विवेकः। तथैव प्रसिद्धः सुन्दरशब्दः, सा लेखनी सुन्दरा अस्ति। अत्र अस्मिन् वाक्ये सुन्दरा शब्दः यः अस्ति सः साधुः, सुन्दरी इत्येव साधुरूपम्। सुन्दरशब्दः गौरादिगणे पठितः, अतः षिद् गौरादिभ्यश्च इति सूत्रेण मीष् प्रत्यये सुन्दरी इति रूपम्। चेतनावतीषु सुन्दरी इति प्रयोगः क्रियते विना चिन्ताम्, यथा तरुणी सुन्दरी इति। किन्तु अचेतनासु आत्त्वं स्यात् इति भ्रमः, यथा सुन्दरा लता इत्यादि प्रयोगाः क्रियन्ते, तथा भ्रान्तिमूलकः एव प्रयोगः। सुन्दरशब्दः स्त्रियां सर्वत्र चेतनेषु अचेतनेषु ईत्वम् एव प्राप्नोति, आत्त्वं कदापि न प्राप्नोति। अयं प्रसिद्धः सुमङ्गली इति शब्दः, सुमङ्गल्यः अशीर्भिः वधूम् अनुगृहीतवत्यः। अत्र सुमङ्गलाः इति स्यात्। सुमङ्गला शब्दः छन्दसि संज्ञायां चैव ईत्वं प्राप्नोति केवलमामक इति सूत्रेण। तद्भिन्ने स्थले तन्नाम भाषायां सुमङ्गला इत्येव रूपम्, सुमङ्गली इति तु रूपं वेदे एव। लोके यदि कस्याश्चित् नाम सुमङ्गली इति अस्ति तद्भवितुमर्हति संज्ञायां, तद्विहाय अन्यत्र सर्वत्रापि सुमङ्गला इत्येव प्रयोक्तव्यम्। अत्र आश्चर्यं नाम प्रादेशिकभाषासु सुमङ्गली इति प्रयोगः एकान्तः एव, नाम्नि तु सुमङ्गला इति प्रयोगः अस्ति, अयं विपरीतप्रयोगः प्रादेशिकभाषासु। चोरा, चोरा सा आरक्षकैः गृहीता, अत्र चोरी इति प्रयोक्तव्यम्। चुरस्तेये इति स्तेयार्थकः चुरधातुः, तस्य अच् प्रत्ययः चोरः इति रूपम्। तस्य णिन्तात् स्त्रियां ङीप् भवति, चोरी इति रूपम्। चौर इति अन्यः शब्दः अपि अस्ति, चुराशीलम् अस्य इति चौरः, तस्यापि चौरी इत्येव रूपं भवति। चोरा इति वा चौरा इति वा रूपं नास्ति, चौरी चोरी इत्येव रूपम्।
अन्ये केचन शब्दाः सन्ति प्रसिद्धाः एव बहुधा तेषां स्त्रीप्रत्यये वयं दोषं कुर्मः तान् पश्यामः सनातना पुरातना आधुनिका इदानीन्तना वार्षिका षाण्मासिका साधारणा प्राचीनी नवीनी अधस्तना इत्यादयः तत्र शुद्धं रूपं तु सनातनी पुरातनी आधुनिकी इदानीन्तनी वार्षिकी षाण्मासिकी साधारणी प्राचीना नवीना नूतना अधस्तनी इत्यादि एते सर्वे कालसम्बद्धाः शब्दाः एते स्त्रीलिङ्गे ईकारान्तमेव अर्हन्ति टिट् प्रत्ययाः इत्यादि कारणात् प्राचीननवीनशब्दाः ख प्रत्ययान्ताः नूतनशब्दः कनत् प्रत्ययान्तः अतः एतेषां नीप् एव भवति प्राचीननवीन इत्यादीनां शब्दानां तु टाप् भवति अतः सनातना परम्परा पुरातना भाषा इति प्रयोगाः असाधवः बहवः शब्दाः सन्ति यत्र रूपद्वयं श्रूयते प्रार्थना प्रार्थनम् उद्घाटना उद्घाटनम् गणना गणनम् रूपद्वयं तत्र श्रूयते प्रार्थना इत्यादिषु रूपद्वयं दृष्ट्वा केचन पठन लेखन इति प्रयोगाः सन्ति इति चिन्तयन्ति तत् न वस्तुस्थितिस्तु पठनं लेखनं गणनम् उद्घाटनम् इत्यादिषु भावे लुट् प्रत्ययः सर्वेभ्यः धातुभ्यः भावे लुट् प्रत्ययः भवति तेषां नपुंसकत्वमेव प्रार्थना इत्यादिषु युच् प्रत्ययः सर्वेषां शब्दानां युष् प्रत्ययः न भवति ये निजन्ताः शब्दाः अन्ये केचन परिगणिताः शब्दाः सन्ति ते एव युष् प्रत्ययं प्राप्नुवन्ति यथा प्रार्थना इत्यादयः परिगणितेषु शब्देषु यत्र अन्तर्भावः नास्ति तेषां युष् प्रत्ययः न भवति अतः तेषां हकारान्तता न भवति अन्वेषणावन्दना इत्यादयः परिगणिताः इत्यतः आकारान्ततां प्राप्नुवन्ति उक्तेषु अंशेषु कुत्रापि सन्देहः अस्ति कृपया हस्तम् उत्तोलयन्तु अन्यथा अग्रे गच्छामः अन्ये केचन शब्दाः सन्ति तान् पश्यामः एतानि वाक्यानि यदि परिशीलयामः तस्याः राक्षस्याः आकृतिः भयङ्करी आसीत् एषा मम सहोदरी काचित् युवती अद्य मिलिता एषा स्वाभाविकी प्रक्रिया संस्कृतभाषा परमभावना अस्ति संस्कृतसेवा करणीया इति मम जीवनाभिलाषा एतेषु वाक्येषु यानि स्त्रीप्रत्ययान्तानि रूपाणि प्रयुक्तानि तेषां विषये किञ्चित् ज्ञातव्यमस्ति भयंकरी इति असाधु भयंकरा इत्येव मेधार्थ भयेषु कोयः इति सूत्रेण खञ् प्रत्ययः भवति तदा तापेव भवति अतो ये अतः भयंकरा इत्येव शुद्धं रूपं सहोदरा इति आकारान्तरूपम् एव शुद्धम् सह समानम् उदरम् अस्येति सहोदरः सह इत्येतस्य शब्दस्य योगे नीश निषेधः कृतः सह नैविद्यमानपूर्वाच्च इति सूत्रेण सः सहोदरा इत्येव रूपम् इकारान्तः शब्दः न साधुः योनस्तिः इति सूत्रेण तित्प्रत्यये योतिः इति रूपं सिद्धम् केचन योति इति ईकारान्तं रूपं नाङ्गीकुर्वन्ति सिद्धान्तकौमुद्यं तु योति इति रूपं कथञ्चित् समर्थितमस्ति अतः युवती इति रूपम् अपि साधु एव स्वाभाविकी इति ईकारान्तं रूपम् एव साधु स्वभावात् आगतः इति अर्थे ठक् प्रत्ययः तेन स्त्रियां ईत् ईकारान्तत्वं च पावनशब्दः करणल्लुडन्तः तेन टित्वात् निष्प्रत्यये पावनी इति रूपं स्यात् अतः पावना इति आकारान्तं रूपम् असाधु अभिलाषा इति आकारान्तं रूपम् असाधु अभिलाषशब्दः घयन्तः घयन्ताः ये शब्दाः सन्ति ते पुल्लिङ्गे भवन्ति इति लिङ्गानुशासनविहितम् घयवन्ताः पुंसि इति अतः अभिलाषः इति पुल्लिङ्गविशिष्टं रूपम् एव साधु अन्ये केचन शब्दाः सन्ति तान् पश्यामः राक्षसी शूर्पणखी रामसमीपम् आगता अरण्ये काचित् पिशाचा वसति स्म चित्रस्था आकृतिः नैजा इति भाति तत्र शूर्पणखा इत्येव साधु नखङ्कात् संज्ञायामिति ईशः निषेधात् ईकारस्य प्रसक्तिः नास्ति पिशाचः इति अण्प्रत्ययान्तः अतः स्त्रिया नीश् भवति पिशाची इत्येव रूपम् नीशब्दात् नैजम् इति रूपम् स्वार्थः अण् प्रत्ययः एवं तस्य अण्णन्तत्वात् स्त्रियां किड्ढाणै इति सूत्रेण नी भवति नैजि इति रूपम् प्रतिदशवर्षं देशे जनगणतिः प्रचलति जनगणतिः इति अपशब्दः जनगणना इति प्रयोक्तव्यम् गणधातुः दशमगणीयः चुरादिगणीयः तस्य स्वार्थे निच् यथा पूर्वमुक्तं ये निजन्ताः शब्दाः तेषां युच् प्रत्ययः भवति क्तिन् न भवति अतः गणना इत्येव रूपम् गणतिः इति रूपं कदा भवेत् इत्युक्ते दाणिग्रहितं रूपं भवति अतः गणना इत्येव शुद्धं रूपम् बहवः महिलाः शास्त्राध्ययने उत्सुकाः दृश्यन्ते बहवः इति न दोषाय। बहु शब्दस्य पुंसि बहुवचने बहवः इति रूपम्, स्त्रियामपि बहवः इति रूपम् अस्ति। पुल्लिङ्गे पुल्लिङ्गस्त्रीलिङ्गयोः रूपभेदः द्वितीया बहुवचनादारभ्य भवति, तावत्पर्यन्तं समानं रूपम्। द्वितीया बहुवचनान्ते पुंसि बहून् इति रूपम्, पुल्लिङ्गे द्वितीया बहुवचने बहून् इति रूपम्, स्त्रियां बहूः इति, तावत्पर्यन्तं रूपे भेदः नास्ति। द्वितीया बहुवचनतः एव रूपभेदः। बहुशब्दात् स्त्रियां विकल्पेन निष्विधीयते बह्वादिभ्यश्च इति सूत्रेण, निष्प्रत्यये कृते बह्वी इति रूपम्। यदा निष् न भवति तदा बहुः इति रूपम्। केचन बहुशब्दस्य स्त्रियां बह्वी इत्येव रूपम् इति भावयन्ति, बहवः इति पुंसि इति तेषां सा भ्रान्तिः, निष् विकल्पेन इति ते स्मरन्ति। अतः उभयतापि रूपमस्ति, बहुः बह्वी इति, तथैव मृदुः मृत्वी, लघुः लघ्वी, गुरुः गुर्वी। पटुः पट्वि इत्यादयः। हलन्ताः अपि केचन शब्दाः आकारान्ततां प्राप्नुवन्ति कदाचित्, यथा वाक् वाचा, दिक् दिशा, नेट् निशा, प्रतिपत् प्रतिपदा, सम्पत् सम्पदा। वष्टिभागुरिरल्लोपम् अवाप्योरुपसर्गयोः आपं चैव हलन्तानां यथा वाचा निशा दिशा। कश्चन ऋषिः आसीत् पूर्वं भागुरिः इति, सः वष्टि नाम इच्छति। सः किम् इच्छति? हलन्तानामपि आकारान्तत्वं सः इच्छति। अतः वाक् वाचा इति, दिक् दिशा इति, तत्र श्लोके तेन त्रयः शब्दाः उक्ताः। वाचा निशा दिशा इति एवं बहूनां शब्दानां आकारान्तत्वं सः इच्छति। तेन प्रमाणेन एते शब्दाः आकारान्ताः अपि भवन्ति। हलन्ताः अपि शब्दाः आकारान्तत्वं प्राप्नुवन्ति। इति अयं तृतीयः अध्यायः, स्त्रीप्रत्ययान्तर्गताः दोषाः इति तृतीयः अध्यायः अत्र समाप्तः। एतावत्सु पाठितेषु विषयेषु केऽपि सन्देहाः सन्ति चेत् कृपया हस्तमुत्तोलयन्तु, सन्देहं पृच्छन्तु, नो चेत् अग्रिमम् अध्यायं प्रविशामः।
महोदय नमस्ते, मम नाम श्रीकान्तः। अत्र युवतीनाम् आशिषाः विषये दीर्घसुमङ्गली भव इति उच्यते, परन्तु यदि भवता उक्तं यदि सुमङ्गला इति वक्तव्यमिति, कः साधुशब्दः तत्र?
तद्विषये अहं पुनः एकवारं पृष्ट्वा वदिष्यामि। सुमङ्गली इति वेदे एव प्रयोगः इति अत्र उक्तमस्ति, अतः लोके तु सुमङ्गला इत्येव प्रयोक्तव्यम्। अहं पुनः पृष्ट्वा वदामि।
अस्तु, धन्यवादः।
महोदय, गुर्वी शब्दस्य अर्थं न ज्ञातम्।
गुरुः इत्यस्य स्त्रीलिङ्गरूपं गुर्वी इति, अर्थः तु समानः एव। गुरुः इत्यस्य भारः इति अर्थः अस्ति, किमपि वस्तु विषये तथा यदा स्त्रीलिङ्गं भवति तदा गुर्वी इति प्रयोगः अस्ति। महादेवन् महोदय, महादेवन् महोदयस्य प्रश्नः अस्ति वा? भवतः ध्वनिः न श्रूयते।
श्रूयते वा?
इदानीं श्रूयते।
श्रूयते। नमस्ते। बहु शब्दस्य बहुवचने बहवः इति वक्तव्यं, पुंसि स्त्रीलिङ्गे अपि इति भवता उक्तम्।
स्त्रीलिङ्गे बहवः इति प्रयोगः न दोषाय इति।
बह्वीः इति वेदे आगच्छति, बह्वीः प्रजा प्रजयन्ति स्वरूपाम् इति। स्त्रीलिङ्गे बहुवचने बह्वीः इति वेदे आगच्छति। साधु
सत्यं, साधु एव। वेदस्य सूत्राणि अन्यानि भवन्ति, लोकस्य सूत्राणि भवन्ति। वेदे यत् प्रयुक्तं तत् साधु एव भवति, तद् असाधु इति वक्तुम् अत्र न उद्दिष्टम्। लोके यत् प्रयुज्यते तस्य विषये पाणिनिसूत्रम् अस्ति चेत् अतः प्रयोक्तुं शक्यते। अत्र भवता पृष्टे उदाहरणे तु वेदे वैदिकम् उदाहरणं, सः प्रयोगः शुद्धः एव भवति, तदेव अनुसरणीयं। किन्तु लोके तु अत्र भावः इत्यपि प्रयोक्तुं शक्यते।
धन्यवादः। इयं वेदवाक्यं बहु प्रसिद्धं, बह्वी प्रजा प्रजयन्ति इदं स्वरूपाम्, अजाह्येको जुषमाणो नशेते इत्यादि। तत्र बह्वीः इति उच्यते।
सत्यम्। अग्रिमम् अध्यायं प्रविशामः। सुबन्ताः इति अग्रिमः अध्यायः। जीवने तत्त्वस्य प्राधान्यता स्यात्। अस्मिन् चतुर्थे अध्याये सुबन्ताः ये सन्ति तेषां विषये विचारः प्रस्तुतः अस्ति। सुबन्तानां प्रयोगविषये यत्र अस्माभिः दोषः क्रियते तादृशाः सुबन्तशब्दाः नाम नामपदानि, तेषां विषये अत्र विचारः अस्मिन् चतुर्थे अध्याये सुबन्ताः इति अस्मिन् चतुर्थे अध्याये कृतः अस्ति। अत्र वाक्यानि स्वीकृतानि सन्ति बहूनि वाक्यानि, एकैकशः सुबन्तानि पश्यामः। जीवने तत्त्वस्य प्राधान्यता स्यात्। प्राधान्यता इति अपशब्दः, प्राधान्यम् इति वक्तव्यम् अथवा प्रधानता इति अथवा प्रधानत्वम् इति। प्राधान्यम् इत्यत्र भावार्थे शेय् प्रत्ययः भवति, प्रधानत्वम् इत्यत्र त्वप्रत्ययः भावार्थे, प्रधानता इत्यत्र तल्प्रत्ययः। एवम् एते त्रयः प्रत्ययाः भावार्थे। एकस्मिन्नेव अर्थे प्रत्ययद्वयस्य प्रसक्तिः नास्ति, किन्तु लोके प्रमादवशात् भावार्थकस्य प्रत्ययद्वयस्य योजनं बहुधा क्रियते। अस्माभिः तथा प्रयोगः न करणीयः। प्रवामतः अशुद्धानि पदानि दत्तानि सन्ति, दक्षिणतः शुद्धानि। वैशिष्ट्यम् इति शुद्धं रूपम्, वैशिष्ट्यता इति बहुधा प्रयुज्यते, ऐक्यता इत्यपि, ऐक्यम् इति शुद्धं रूपम्, दार्ढ्यम् इति शुद्धं रूपम्, मौर्ख्यम् इति शुद्धं रूपम्। काठिन्यम् इति शुद्धं रूपम्, शौर्यम् इति शुद्धं रूपम्, वैरस्यम् इति शुद्धं रूपम्, नैपुण्यम् इति शुद्धं रूपम्, प्रामुख्यम् इति शुद्धं रूपम्, वैविध्यम् इति शुद्धं रूपम्, साफल्यम् इति शुद्धं रूपम्, प्रावीण्यम् इति शुद्धं रूपम्, नावीन्यम् इति शुद्धं रूपम्, प्रामाण्यम् इति शुद्धं रूपम्। यथा प्राधान्यम् इत्यत्र उक्तम् प्रधानत्वम् इति वक्तुं शक्यते इति, तथैव वैशिष्ट्यम् इत्यपि विशिष्टत्वम् इति प्रयोगः कर्तुं शक्यते। एकः एव प्रत्ययः प्रयोक्तव्यः भावार्थे, तस्मिन्नेव अर्थे प्रत्ययद्वयस्य आवश्यकता नास्ति, तादृशप्रयोगाः दोषयुक्ताः भवन्ति। अतः वैशिष्ट्यम्, ऐक्यम्, दार्ढ्यम्, मौख्यम्, काठिन्यम्, शौर्यम्, वैरस्यम्, नैपुण्यम्, प्रामुख्यम्, वैविध्यम्, साफल्यम्, प्रावीण्यम्, नावीन्यम्, प्रामाण्यम् इति एतानि शुद्धानि रूपाणि। सः अत्रतः तत्र गतवान्, तत्रतः अन्यत्र गतवान् इति बहुधा दोषयुक्तम् अस्माभिः प्रयुज्यते। अत्रतः तत्रतः इति उभयम् अपि अशुद्धम्, इतः ततः इति प्रयोक्तव्यम्। तस्मिन् इति सप्तम्यन्तात् स्वार्थे तल् प्रत्यये तत्र तिरुपं सिद्ध्यति। तत्र सूत्रम् सप्तम्याल इति। तत्र इत्यस्य प्रकृतिः तच्छब्दः, तसिल् प्रत्ययस्य प्रकृतिः अपि तच्छब्दः एव। अतः त्रल्प्रत्ययान्तस्य सप्तम्यर्थकत्वात् तत्र इत्येतस्मात् तसि न विहितः, पञ्चम्यन्तात् ईतः इत्येव, तत्रतः इति असाधु। तथैव सप्तम्यन्तात् एतत् शब्दात् त्रलि अत्र इति रूपम्, तस्मिन् प्रत्यये तु ईतः इति रूपम्। अतः अत्रतः तत्रतः इति रूपाणि न भवन्ति। बालकः उपरितः पतितः, उपरितः इति अपशब्दः, उपरि इति उपरिष्टात् इति वा प्रयोक्तव्यम्। ऊर्ध्वशब्दात् उप इति आदेशः भवति. रिल् इष्ट तस्मात् उपरि इति उपरिष्टात् इति भौ शब्दौ अपि पञ्चम्यर्थकौ एव उपर्युपरिष्टात् इति सूत्रेण. उपरि इति कथनेन एव ऊर्ध्वभागतः इति अर्थः सिद्ध्यति. पुनः तस्य प्रत्ययस्य आवश्यकता नास्ति. उपरितः इति कथनस्य आवश्यकता नास्ति. उपरिशब्दात् तस्य न विहितः. बालकः उपरिपतितः इति प्रयोगः कृतः चेत् ऊर्ध्वभागात् इति अर्थः सिद्ध्यति एव. यदि स्पष्टं नास्ति इति चिन्त्यते तर्हि उपरिष्टात् इति प्रयोक्तव्यम्. ऊर्ध्वभागात् इति वा प्रयोक्तुं शक्यते. अतः उपरितः इति रूपं नास्ति. विद्यालयतः इत्यत्र तस्य प्रत्ययः. विद्यालयतः इति रूपं तु साधु, किन्तु तत्र तस्य प्रत्ययः इति कथनम् असाधु. वस्तुतः तत्र तस् प्रत्ययः. तस्य सर्वनामशब्दमात्रात् विहितः उत सर्वस्मात्. अतः विद्यालयतः इत्यत्र तस्य न भवति, तस् प्रत्ययः भवति. अद्यादिभ्यः उपसंख्यानम् सूत्रेण तत्प्रत्ययः. एतस्यैव सार्वविभक्तिकः तस्य इति नाम. तत् बहिस्तात् अन्तः आनय. बहिस्तात् इति उपशब्दः. बहिर्भागतः इति अथवा बहिः इति प्रयोक्तव्यम्. अस्ताति प्रत्ययः बहिस्त. अस्ताति प्रत्ययः बहिःशब्दात् अभिहितः. अतः बहिस्तात् इति रूपं दोषयुक्तम्. पाश्चिमात्याः अपि संस्कृताध्ययने आसक्ताः दृश्यन्ते. पाश्चिमात्याः इति अपशब्दः. पाश्चात्याः इति वक्तव्यम्. दक्षिणा पश्चात् पुरसस्त्यक् इति सूत्रेण पश्चाच्छब्दात् त्यक् प्रत्यये पाश्चात्यः इत्यस्य रूपस्य सिद्धिः. त्यक् प्रत्ययः पश्चाच्छब्दात् विहितः इति पश्चिमशब्दात्. अतः पाश्चिमात्यः इति रूपं न भवति. पाश्चात्यः इत्यत्र तकारद्वयं लेखनीयम् इति पूर्वम् अस्माभिः उक्तं स्मर्यते एव. पश्चात् शब्दः शब्दगतः एकः तकारः, त्यक् प्रत्ययगतः अपरः. आहत्य तकारद्वयम् इत्येवम् अस्मिन् सुबन्तः इत्यस्मिन् अध्याये केचन शब्दाः अस्माभिः दृष्टाः. पूर्वतने त्रिप्रत्ययान्तगताः दोषाः इत्यपि इत्यत्रापि केचन विषयाः अस्माभिः दृष्टाः. यदि उक्तेषु विषयेषु कोऽपि सन्देहः अस्ति चेत् कृपया पृच्छन्तु. अन्यथा एतां कक्षां समापयामः. अग्रिमकक्षायाम् अन्यान् विषयान् पश्यामः. एषा कक्षा तु अत्र अस्मिन् जालपुटे भवति इति भवन्तः जानन्ति एव. केऽपि सन्देहाः सन्ति चेत् एतं
संकेतं प्रति पत्रमपि भवन्तः प्रेषयितुं अर्हन्ति। पूर्वतनाः पाठाः सर्वेपि अस्मिन् जालपुटे उपलभ्यन्ते इति भवन्तः सर्वे जानन्ति एव। अद्य पाठिते विषये सन्देहाः सन्ति चेत् प्रष्टुमर्हन्ति, अन्यथा अग्रिमकक्षायां पश्यामः।